ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र शानज् प्रत्ययान्तपदानि। अस्मिन् विषये वयं बहु किमपि पठितवन्तः, केचन अभ्यासाः अवशिष्टाः सन्ति, किन्तु मध्ये तत्र यथा वयं बहुवारं कुर्मः तत्र मध्ये मध्ये तत्र किं डैग्रेशन् इति तत्र अन्यत्र गत्वा पुनः अत्र आगच्छामः। तत्र तत्र अभ्यासः अपि कथा अस्ति, तत्र अन्यत् पुस्तकं टीचर्स् इन् संस्कृत् मध्ये अस्ति। पूर्वं तत्र शोभा भगिनी अपि सूचितवती तत्र एतत् कुर्मः इति, किन्तु शानज् प्रत्ययस्य किञ्चित् अभ्यासः भवतु तदनन्तरं कुर्मः इति कारणात् तत्र पूर्वं न कृतवन्तः। अतः सर्वे प्राप्तवन्तः इति मन्ये, नाम तत्र सीता स्वयंवरः इति प्रथमा कथा अस्ति, तदनन्तरं तत्र द्वितीया कथा अपि अस्ति अपि, अतः तत्र वयमपि पठामः तर्हि। अस्तु, सर्वेषां पार्श्वे कथा अस्ति खलु?
आं महोदय।
आं महोदय।
अस्तु अस्तु, तर्हि आरम्भं कुर्मः तर्हि। तत्र वेदा भगिनी आरम्भं करोति वा?
आं महोदय। सीता स्वयंवरः, शानच् प्रत्ययान्तप्रयोगाः त्रिषु लिङ्गेषु। मिथिलायां सीतायाः विवाहं कामयमाननेन राज्ञा जनकेन स्वयंवर
कामयमानेन
कामयमानेन राज्ञा जनकेन स्वयंवरसभा आयोजिता। तदर्थं केवलं पठामि वा?
केवलं पठतु भगिनि, एकवारं पठामः, यतोहि तत्र कथा तत्र आस्वादः भवेत् खलु।
तदर्थं बहुभ्यः देशेभ्यः राजानः आमन्त्रिताः आसन्। स्वयंवरमण्डपे विद्यमानं शिवधनुः निर्णायिकां भूमिकां निर्वक्ष्यति इति घोषणा जायमाना आसीत्। यः शिवधनुषी बाणम् आरोपयिष्यति तस्मै सीता प्रदास्यति इति उद्घोषकः भाषमाणः अभवत्। सीता स्वयंवरं द्रष्टुं विश्वामित्रेण सह उपस्थितौ रामलक्ष्मणौ अपि स्वयंवरसभायां शोभमानौ आस्ताम्। विहारप्रान्ते प्रवहमानां गङ्गानदीं तीर्त्वा ते तत्र प्राप्तवन्तः आसन्। एकैकशः राजानः स्वभाग्यं परीक्षितुम् उद्युक्ताः।
समीचीनं भगिनि। अस्तु, अन्य कोऽपि? तर्हि तत्र निवेदिता भगिनी अग्रे पठति वा?
कुत्र अस्ति कृपया वदतु?
एकैकशः इति राजानः,
एकैकशः राजानः स्वभाग्यं परीक्षितुम् उद्युक्ताः। अनेके तु धनुषः उत्थापने यतमानाः असफलाः भवन्ति स्म। केचन आरम्भात् एव भीताः सन्तः कम्पमानाभ्यां हस्ताभ्यां धनुः उत्थापयन्ति स्म। असाफल्यं भजमानाः ते उपहासपात्रतां व्रजन्ति स्म। सीतां कामयमानः रावणः अपि स्वयंवरे भागं ग्रहीतुम् आगतवान् आसीत्। कम्पमानेन शिरसा सः धनुः उत्थापयन् भूमौ अपतत्। तद् दृष्ट्वा सभायां वर्तमानाः सभासदः उच्चैः अहसन्। अनेन प्रसङ्गेन मोदमाना सीता अपि स्वसखीं किञ्चित् भाषमाणा अहसत्। यदा तदर्थम् उपस्थिताः सर्वे राजानः अस्मिन् कर्मणि असफलाः अभवन् तदा विश्वामित्रः तत्र विद्यमानं सोत्साहं रामं धनुषि बाणसन्धानं कर्तुं प्रेरितवान्। रामः
धन्यवादः
महोदय। अत्र अस्ति रामः विश्वामित्रस्य आज्ञां मन्यमानः मोदमानेन मुनिवरं विश्वामित्रं जनकं च प्रणम्य धनुषः समीपं गतवान्। सः यदा धनुः उन्नीय बाणं संयोजितवान् तदा धनुः खण्डद्वये विभक्तम् अभवत्। तद् दृष्ट्वा सभायां विद्यमानाः सर्वे जयतु जयतु इति उक्तवन्तः। सीता तु रामस्य सौन्दर्यं दृष्ट्वा पूर्वमेव व्यामुग्धा जाता आसीत्। रामस्य जयं दृष्ट्वा मोदमाना सा रामं प्रीत्वा दृष्टवती। प्रसन्नः जनकः सखीभिः भाषमानया सीतया सह रामस्य समीपं गतवान्। लक्ष्मणेन सह विश्वामित्रः अपि तत् स्थानं प्राप्तवान्। सीता रामस्य वर्णं कृतवती। ततः गुरुजनानाम् आशिषं याचमानौ तौ नवदम्पती सर्वान् नमस्कृतवन्तौ।
इति अस्ति समीचीनम्। अस्तु तर्हि तत्र इदानीं यतोहि अस्माकं शानज्यप्रत्ययान्तानां परिचयः प्राप्तः अस्माभिः, अतः तत्र क्लेशः प्रायशः नास्ति। किन्तु तत्र पङ्क्तिशः परिशीलयामः अपि तत्र कीदृशं किं किं कथं कथम् उक्तम् अस्ति इति अपि तत्र पश्यामः तर्हि। अस्तु तर्हि तत्र हर्षदा भगिनी आरम्भं करोति वा इदानीं तत्र पङ्क्तिशः आरम्भात्।
मिथिलायां सीतायाः विवाहं कामयमानेन राज्ञा जनकेन स्वयंवर स्वभा आयोजिता। जनकराजा मिथिलायाः राजा जनकः तस्य पुत्री सीतायाः विवाहं कामयते। अतः सः स्वयंवरसभा आयोजितवान्
सभाम् आयोजितवान्। अपि कीदृशजनकः एषः अस्ति?
कामयमानः जनकः, राजा जनकः।
जनकः समीचीनं, समीचीनं भगिनि। अस्तु अग्रे।
तदर्थं बहुभ्यः देशेभ्यः राजानः आमन्त्रिताः आसन्। राजा जनकः बहुभ्यः देशेभ्यः बहवः राजानः आमन्त्रितवान्।
इदानीं तत्र तत्र अहं न स्मरामि, किन्तु तत्र राजापदस्य तत्र राजा राजानौ राजानः राजानं राजानौ तत्र द्वितीयविभक्ति बहु
द्वितीयविभक्ति अहमपि न स्मरामि।
राज्ञः इति
राज्ञः आमाम् अहमपि विस्मृतवती महोदय। आमां
चिन्ता
राज्ञः राज्ञः आमन्त्रितवान्। राजा जनकः आमन्त्रितवान्।
समीचीनम्। अत्र बहुभ्यः देशेभ्यः तत्र विभक्ति का
पञ्चमी।
तत्र तस्मात् ते आगच्छेयुः इति तत्र आमन्त्रणं प्रेषितवान्। समीचीनम्। अस्तु अग्रे
एकमिनिट मम दूरवाण्यां स्वयंवरमण्डपे विद्यमानं शिवधनुः निर्णायकां भूमिकां निर्वक्ष्यति इति घोषणा जायमाना आसीत्। तत्र राजा जनकः घोषणां कारितवान् स्वयंवरमण्डपे यः शिवधनुष्यः विद्यमानः अस्ति, शिवधनुः विद्यमानः अस्ति, तत्
तत्र विद्यमानः तत्र, यतोहि तत्र नपुंसकलिङ्गपदम् अहमपि बहुवारं विस्मरामि, किन्तु
आम् 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 धनुः धनुषि धनुषि
इति
तत् शिवधनुः स्वयंवरे विद्यमान निर्णायिका भूमिका निर्वक्षति इति घोषणां जनकेन कारितवान्। जनक
अत्र तत्र जनक क्रियापदं निर्वक्ष्यति इति अस्ति, तत्र लकारः कः?
लट् लकार, प्रथमपुरुष एकवचन,
निर्वक्ष्यति
एक मिनिट, हा भविष्यत्काल, भविष्यत्काल, लुट् लकार,
तत्र लट् लकारे किं रूपं? वक्ष्यति, सः वक्ष्यति, सः वक्ष्यति, किन्तु लट् लकारे वदति
वदति वदति महोदय, मम कृते वद् वद् वच् धातुयोः बहु सम्भ्रमः भवति।
तत्र निर्वदति इति स्वीकुर्मः, तत्र निर्वक्ति इति अपि भवेत्। तत्र कोऽपि दृष्ट्वा वदति वा, तत्र निर्वक्ष्यति इत्युक्ते तत्र वक्ति वा वदति वा इति?
एकनिमिषं,
निर्वचत्
महोदय, तत्र वदति इत्यस्य वदिष्यति इत्येव भवति, प्रायशः मम कृते तु सर्वदा महोदय वज् धातु वद धातो रूपस्य कृते बहु सम्भ्रमः भवति
सर्वेषां कृते अस्ति। अतः तत्र निर्वक्ति अथवा अर्थः समानार्थकं निर्वदति, निर्वदति नाम तत्र वार्निङ्ग्, तत्र अथवा तत्र तत्र कः करोति, तत्र शिवधनुः एव तत्र निर्णयं, केन एव तत्र निर्णयः भवति इति। अतः तत्र स्वयंवरमण्डपे विद्यमानं शिवधनुः कर्तृपदमस्ति, शिवधनुः निर्वक्ष्यति, किं निर्वक्ष्यति? निर्णायिकां भूमिकाम्।
इत्युक्ते शिवधनुः डिसैड् करोति कः वरः इति,
तेनैव तत्र निर्णयः भवति इति सत्यं, तेन आधारेण नाम तत्र शिवधनुषा निर्णयः भवति।
महोदय, भक्ति इति लट्लकारे अस्ति।
धन्यवादः भगिनि, धन्यवादः, भक्ति, अस्तु समीचीनं, धन्यवादः भगिनि, अस्तु अग्रे।
यः शिवधनुषि बाणम् आरोपयिष्यति तस्मै सीता प्रदास्यते इति उद्घोषकः भाषमाणः अभवत्। उद्घोषकः भाषते यः शिवधनुषि बाणम् आरोपयिष्यति तस्मै एव सीता प्रदास्यते, यानि तस्मै एव सीता वर्णनं करोति करिष्यति इति।
तामेव तत्र सीतां तत्र वररूपेण स्वीकरोति, तमेव सीता
तमेव
वरम् इति चिनोति, वररूपेण चिनोति इति, समीचीनं। अग्रे,
सीता स्वयंवरं द्रष्टुं विश्वामित्रेण सह उपस्थितौ रामलक्ष्मणौ अपि स्वयंवरसभायां शोभमानौ आस्ताम्। सीता स्वयंवर द्रष्टुं विश्वामित्रेण सह रामलक्ष्मणौ अपि आगतवन्तौ
आस्ताम्।
अस्तम्
अस्तमेव नाम तत्र ते अपि आगतवन्तौ तत्र उपस्थितवन्तौ उपस्थितौ तत्र नौ आस्ताम् इति स्थाने तत्र लट्लकार तत्र प्रथमतया लट्लकारे द्विवचनं किमस्ति शोभते
शोभेते
शोभेते हा इदानीं शोभेते हा लङ्लकारे
अशोभत
अशोभेत
हा द्विवचनं अशोभेत
अशोभेत रामलक्ष्मणौ तत्र स्वयंवरसभायाम् अशोभेत समीचीनम् अस्तु अग्रे
विहारप्रान्ते प्रवहमानां गङ्गानदीं तीर्त्वा ते तत्र प्राप्तवन्तः विहारप्रान्ते गङ्गानदी प्रवहते तां तीर्त्वा विश्वामित्रेण सह विश्वा रामलक्ष्मणौ तत्र प्राप्तवन्तौ
इति समीचीनं
तत्समये रामलक्ष्मणौ विश्वामित्रस्य आश्रमे शिष्यौ आस्ताम् इति अहं स्मरामि
समीचीनं सत्यं सत्यं तथैव अस्ति समीचीनं अस्तु समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि समीचीनमस्ति शोभगिनी न श्रूयते
ओ पृष्टवान् वा महोदय न श्रुतं मया अस्तु अस्तु
चिन्ता मास्तु इदानीम् अग्रे भवती पठति वा
एकैकशः राजानः स्वभाग्यं परीक्षितुम् उद्युक्ताः एकैकशः इत्युक्ते एकमेकं कृत्वा राजानः तत्र स्वभाग्यं तेषां भाग्यं भाग्ये अस्ति वा न वा इति सीतां प्राप्तुम् अथवा सीतायाः प्रापणम् इति तस्त भाग्यं परीक्षितुम् उद्युक्ताः इत्युक्ते उत्सुकताः इति अपि भवति इति मन्ये
उत्सुकाः
अथवा उद्युक्ताः अभवन् अनेके तु धनुषः उत्थापने यतमानाः असफलाः भवन्ति स्म तेषाम् अनेके तु तत्र परीक्षा आसीत् यदि धनुः उत्थाप्य तस्य सिद्धता
तस्मिन्
बाणम् बाणस्य आरोपणं करणीयम् इति किन्तु अनेके उत्थापने इत्युक्ते उत्थापितुम् अपि न शक्तवन्तः
उत्थापने अपि तत्र तेषां शक्तिः नासीत् असफलता भवन्ति स्म असफलाः
यतमानाः यतन्ते किन्तु सफलता न प्राप्नुवन्तः
पुनः तत्र यतन्ते इति स्थाने लङ्लकाररूपं
हा यतन्ते इति आत्मनेपदीरूपम् अतः लङ्लकारे अयतन्त ते अयतन्त धनुषः उत्थापने
तत्र लङ्लकारे किम् उक्तवती तत्र प्रायशः अहं दोषेण उक्तवान् इति मन्ये भगिनि पूर्वं तत्र अवर्धत अवर्धेताम् तत्र पूर्वम् अहं शोभेते अशोभेते इति उक्तवान् तत् समीचीनं नासीत् क्षम्यताम्
न महोदय तत्तु समीचीनम् आसीत् यतः रामलक्ष्मणौ इति द्विवचनम् आसीत् खलु तत्र किन्तु द्विवचनमेव आवश्यकं न
किन्तु तत्र सम्यक् अवर्धत अवर्धेताम् अवर्धन्त तर्हि तत्र द्विवचने वर्धे अवर्धे थाम् इति भवेत् भगिनि. अहं तत्र अवर्धे ते इति किमपि उक्तवान् इति मन्ये. हा किन्तु हा अतः अशोभेताम् इति भवेत् खलु.
हा अशोभेतां भवान् अशोभेत उक्तवान्. आम् आम् आम्
हा सत्यम् अशोभेतां शोभिनि धन्यवादः. हा भवती यदा उक्तवती तदा मम मनसि स्मरणम् अभवत् ओ अस्तु अस्तु तत्र दोषः आसीत् इति. हा समीचीनं भगिनि. हा
अस्तु महोदय. केचन अस्तु अग्रे केचन आरम्भात्
किम् उक्तवन्ती भगिनी यतमानाः स्थाने किम् आयाति लङ्लकारे
यतते इति लट्लकारे भवति चेत् अयतता इति भवति.
यततां अयतन्त इति
अयतन्त. आम्
अयतन्त वा ओके.
केचन केचन आरम्भात् एव भीताः सन्तः कम्पमानाभ्यां हस्ताभ्यां धनुः उत्थापयन्ति स्म. केचन तु आरम्भे एव तेषां धैर्यमेव न आसीत्. आरम्भे एव ते तेषु भीतिः अभवत् यतोहि अन्येषां पराजयं दृष्टवन्तः इति कृत्वा ते कम्पमानाभ्यां हस्ताभ्यां तत्र तु तदेव वक्तुमिच्छामि कम्पमानाभ्यां हस्ताभ्याम् इति खलु महोदय. हस्तौ कम्पमानाः हस्तः अस्ति वा हस्तं हस्तः हस्तौ क्षम्यतां महोदय हस्तौ कम्पमानौ कम्पमानौ अभवन् अथवा अभवतः तेषां इति कृत्वा तेन कारणेन उत्थापने धनुषः उत्थापने सफलता न प्राप्तवन्तः.
किन्तु तत्र
उत्थापयन्ति
उत्थापयन्ति उत्थापयन्ति किन्तु तत्र कीदृ हस्ताभ्याम् इति तत्र विभक्ति का अस्ति तत्र
तत्र हस्ताभ्याम् उत्थापयन्ति इत्युक्ते तत्र तृतीया हस्तेन इति
तत्र अतः तत्र समीचीनं. तर्हि तत्र तत्र तृतीया इति अस्ति. तर्हि तत्र कम्पमानाभ्यां हस्ताभ्यां ताभ्यां धनुः उत्थापयन्ति
स्म. हा तत्र पुनः
तत्र तत्र सन्तः इति अस्ति किञ्चित् पदपरिचयं करोतु तत्र सन्तः इति कीदृश.
तत्र सन् प्रत्ययः इत्युक्ते तत्र शत्रुप्रत्ययः भवति. केचन शत्रुप्रत्ययः
धातुः कः धातुः कः
धातुः तत्र सत् तत्र सत् इति प्रातिपदिकं क्षम्यतां धातुः तत्र अस्येव खलु महोदय
अस्येव अस् धातोः शत्रुन्तरूपं
सन् इति
तत्र सन् सन्तौ सन्तः
सन् सन्तौ सन्तः
अतः बहुवचने सन्तः इति अस्ति. नाम तत्र ते सन्तः अत्र नाम तस्मिन्नेव समये ते तत्र सन्तः भीताः सन्तः
तस्मिन्नेव
समये तत्र उत्थापयन्ति स्म. नाम तत्र उत्थापनकार्यमपि भवति तत्रापि सन्ति तत्रापि सन्ति भीताः सन्ति
भीत्या उत्थापितवन्तः
इति अग्रे इति सारांशः समीचीनम्. अग्रे
असाफल्यं भजमानाः ते उपहासपात्रतां व्रजन्ति स्म. असाफल्यं भजमानाः ते तत्र ते अपि साफल्यं न प्राप्तवन्तः. असाफल्यं भजमानाः तत्र किं कस्मिन् अर्थे
भजमानः
भुङ्क्ते इति अस्तु अस्तु
तत्र
भुङ्क्ते इति वा महोदय
ते प्राप्नुवन्ति इति नाम असफलाम् असाफल्यं भजते नाम प्राप्नुवन्ति अथवा तत्र भुङ्क्ते इति नाम तत्र असाफल्यं भुङ्क्ते नाम तद् अनुभवन्ति इति अर्थे
अनुभवन्ति अनुभवन्ति
अनुभवन्ति इति अर्थे तत्र भजन् भजते भजन्ते भजमानाः ते
भजमानाः इत्युक्ते असाफल्यम् अनुभवन्तः ते
तत्र असाफल्यं नाम
साफल्यं नास्ति सफलं सफलं
नाभावः नाम तत्र
सत्यम् इत्युक्ते तत्र भाववाचक पदं
सौन्दर्यं तादृशं खलु
साफल्यं सफलता साफल्यम् अथवा त्वम् अपि अस्ति सफलत्वं
सफलत्वम् इति भवति समीचीनं
ते उपहासपात्रतां व्रजन्ति स्म यतोहि ते असफलताम् अनुभूतवन्तः तेषाम् उपहासपात्रताम् अन्ये तान् उपहासं कृतवन्तः
नाम तत्र व्रजन्ति अपि तत्र नाम तत्र पुनः तत्र प्राप्तवन्तः इति अर्थे एव नाम उपहासपात्रताम् प्राप्तवन्तः नाम तत्र ते अथवा अनुभवन्ति अनुभवन्ति स्म
तत्र पुनः तल् प्रत्यय भवति उपहासपात्रता इति तस्य द्वितीय कर्मपदम् उपहासपात्रताम् इति भवति व्रजन्ति स्म प्राप्नुवन्ति उपहासं प्राप्नुवन्ति
अनुभवन्ति
अनुभवन्ति सीतां काम्यमानः रावणः अपि स्वयंवरे भागं ग्रहीतुम् आगतवान् आसीत् तत्र रावणः कामयमानः क्षम्यतां कामयमानः
रावणः कामयते
कामयते
कां कामयते
सीतां कामयते
सीतां कामयते
तादृशः रावणः अपि स्वयंवरे भागं ग्रहीतुम् आगतवान् आसीत् तत्र भागं वोढुम् इति अपि वक्तुं शक्नुमः सः अपि तत्र उपस्थितः आसन् आसीत् कम्पमानेन शिरसा सः धनुः उत्थापयन् भूमौ अपतत् कम्पमानेन शिरसा इत्युक्ते तत्र तस्य शिरः कम्पमानः आसीत् यदा सः
तत्र धन् अपतत् इति आरभ्य किञ्चित् विवृणोतु भगिनि तर्हि समीचीनं भवति
अस्तु अस्तु सः अपतत् सः अपतत् सः भूमौ अपतत् सः धनुः उत्थापयन् भूमौ अपतत्
नाम कदा सः भूमौ अपतत् उत्थापयन्
उत्थापयन् भूमौ अपतत्
उत्थापनसमये उत्थापनसमये खलु उत्थापनम्
उत्थापनसमये तत्र शत्रुप्रत्ययः उत्थापयन्
उत्थापयन् आसीत् तस्मिन् समये सः अपतत् अपतत्
कीदृशः सः इत्युक्ते कम्पमानशिरसा कम्पमानशिरसः इति वा कम्पमानशिरः तस्य तस्य कम्पमानः शिरः
कम्पमानं शिरः समीचीनं कम्पमानं शिरः तस्य अस्ति तत्र तादृशशिरसा तत्र प्रायशः तत्र पतनसमये तत्र नाम तत्र अपतत् इत्युक्ते सः एव अपतत् खलु
सः एव अपतत्
सः एव अपतत् किन्तु तस्य शिरः तत्र कम्पमानम् आसीत् तस्मिन्
कम्पमानम् आसीत्
तादृश
तद् दृष्ट्वा
नाम पतनसमये तत्र शिरसः कम्पनम् अभवत् इति
कम्पनम् आम् तद् दृष्ट्वा सभायां वर्तमानाः सभासदः उच्चैः अहसन् तं दृश्यं दृष्ट्वा सभायां ये आगतवन्तः वर्तमानाः इत्युक्ते वर्तमानाः सभासदः सभा इति तत्र स्त्रीलिङ्गपदं सभासदः इति तत्र ये सभायां प्रस्थिताः सन्ति इति अर्थे भवति तादृशाः
प्रायशः तत्र सुहृद् सुहृदौ सुहृदा इव तत्र
सभासत् इति अस्ति वा महोदय
सभासद् सभासदौ सभासदः इति यतोहि बहु बहुवचने अस्ति
बहुवचने अस्ति हलन्तपदं प्रातिपदिकं हलन्तप्रातिपदिकं
सभासद् सभासद्
सभासत्
नाम सभायाः सदस्यः
सदस्यः
सदस्यः इति अर्थे तत्र सभासद्
सभासद् तस्य बहुवचनं सभासदः तत्र वर्तमानाः सभासदः इति तं दृष्ट्वा
तद् दृष्ट्वा
तद् पतनं दृष्ट्वा तस्य पतनं दृष्ट्वा ये तत्र वर्तमानाः आसन् सभासदः ते उच्चैः तं प्रति असहन्
इति समीचीनम् अस्तु अग्रे तत्र धन्यवादः भगिनि समीचीनं
धन्यवादः महोदय
अस्तु अग्रे तत्र वेदा भगिनी अग्रे किञ्चित् विवृणोति वा वंशीसुधा भगिनी नमस्कारः तत्र कथां पठन्तः स्मः
नमस्ते महोदय अद्य शृणोमि महोदय
अस्तु अस्तु चिन्ता मास्तु भगिनि अस्तु
अनेन
एका शङ्का अस्ति रावणस्य दश शिरसः आसन् खलु
मनः मनसि मनांसि शिरांसि इति
अने शिरसा इत्युक्ते शिरसा अस्ति तत्र कम्पमानैः किं शिरोभिः भवेत् खलु इति
भवेत्
शङ्का अस्ति महोदय
किन्तु सत्यं भगिनि किन्तु तत्र तस्य इच्छानुसारं तत्र दश
तत्र रावणस्य विषये नास्ति महोदय तत्र अग्रे गत्वा रावणस्य विषये आयाति इति मन्ये
कुत्र
ओ काम्य काम्यमानः रावणः अपि स्वयंवरे ओ ओके ओके
न जानामि भगिनि प्रायशः तत्र यदि सः इच्छति केवलम् एकमेव शिरः प्रदर्शयति यदि इच्छति तदा अनेके शिरांसि अनेकानि शिरांसि प्रदर्शयति इति मन्ये खलु
खलु
नाम तत्र अतः तत्र यदा स्वयंवरे आगच्छति प्रायशः एकं शिरः एव प्रदर्शयति
शक्यं शक्यं
खलु नो चेत् तत्र किम्
तत्र कोलाहलः
भवति अपि तत्र 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 सीता अथवा तत्र अन्य कोऽपि या कोऽपि भवेत् तत्र ते सर्वे भीताः भवन्ति खलु
भीताः भवन्ति आमां सत्यं सत्यम्
अतः प्रायः अत एव कथायां तत्र एकः एकमेव शिरः इति उक्तम् इति मन्ये
अस्तु अस्तु
अस्तु अग्रे वेदा भगिनि अग्रे
अनेन प्रसङ्गेन मोदमाना सीता अपि मोदमाना सीता सीतायाः विशेषणं मोदमाना अपि स्वसखीं किञ्चित् भाषमाना अहसत् अनेन प्रसङ्गेन तत् दृष्ट्वा सभासद उच्चैः अहसन् तद् दृष्ट्वा अनेन प्रसङ्गेन एव सीता अपि मुदिता सीता इति वदामि वा
मोदमाना इति तत्र क्रियापदं किम् अस्ति
मुद् धातु
मुद् अस्ति किन्तु तत्र क्रियापदं
क्रियापदं मुदति
न मोदमाना अस्ति चेत्
ओके मोदमाना अस्ति चेत् मोदमान् पुल्लिङ्ग स्त्रीलिङ्गे 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 अस्ति
क्रियापदं किम् अस्ति
क्रियापदं
वर्धते अस्ति चेत् तत्र शानज् रूपं किम् अस्ति
वृत् वृत्
उत्तमं भगिनि धातुः समीचीनं किन्तु वर्धते अस्ति वर्धते इति क्रियापदम् अस्ति चेत् शानज् रूपं किम् अस्ति
वर्धते क्रियापदमस्ति चेत् शानज् रूपं वर्धमानः वर्धमानः
न समीचीनं वर्धमानः वर्धमानः वर्धमानम् तर्हि मोदमाना इति
अस्ति 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 इति
समीचीनं किन्तु मोदमाना अस्ति इति स्थाने तत्र एकमेव पदं क्रियापदं किं भवेत् वर्धते इति
अनेन प्रसङ्गेन सीता मुदति एव महोदय
न न मोदते भगिनि तावदेव खलु
मोदते ओ सोरि सोरि सोरि
तावदेव सर्वं अस्तु तत्र तादृशी सीता किं कृतवती
अपि स्वसखीं किञ्चित् भाषति अपि च हसति वा
समीचीनं हा भाषमाना भाषमाणा अहसत् समीचीनम्
इत्युक्ते भाषति अपि च भाषते अपि च हसते वा
हसति खलु अहसत् अहसत् इति रूपं दृष्ट्वा परस्मैपदी दातु खलु
आम् आम्
अतः हसति अथवा अहसत् समीचीनं किन्तु समीचीनं नाम एकस्मिन् समये तत्र कार्यद्वयं
हसते
हसति
अपि च हसति यदा तदर्थम् उपस्थिताः सर्वे राजानः अस्मिन् कर्मणि असफलाः अभवन् तदा विश्वामित्रः तत्र विद्यमानं सोत्साहं रामं धनुषी बाणसन्धानं कर्तुं प्रेरितवान् यदा तदर्थम् उपस्थिताः सर्वे राजानः अस्मिन् कर्मणि असफलाः अभवन् तावत् यदा उपस्थिताः अन्ये राजानः उपस्थिताः अन्ये राजानः अस्मिन् कार्ये
तदर्थम् इत्युक्ते किम्
तदर्थं यदा तदर्थम् उपस्थिता तदर्थम् इत्युक्ते यदा तदर्थम् इत्युक्ते धेनुः धनुः
उत्थापनकार्यं
उपस्थिताः अन्यपि अन्ये राजानः
सर्वे राजानः
अस्मिन् कर्मणि असफला अस्मिन् कार्ये ते
कार्ये समीचीनम् अस्मिन् कार्ये असफलाः असाफल्यं प्राप्तवन्तः तदा किम् अभवत्
विश्वामित्रः तत्र विद्यमानं सोत्साहं रामं धनुषि तदा विश्वामित्रः तत्र सोत्साहं रामं विद्यमानः अस्ति
तर्हि तत्र विद्यमानं सोत्साहं रामम् इति तत्र विभक्तिका तत्र
द्वितीया कर्मपदं
समीचीनं तर्हि प्रथमविभक्त्यां वदतु तर्हि तत्र तत् किमस्ति
विद्यमानः रामः उत्साहः विद्यमानः रामः
सोत्साहः
रामः
रामः अथवा सोत्साहः रामः विद्यते तादृशं रामं विश्वामित्रः
तं धनुषी बाणसन्धानं कर्तुं प्रेरितवान् इत्युक्ते तं विश्वामित्रः धनुषी बाणसन्धानं किं वदामि कर्तुं प्रेरितवान् इत्युक्ते करणीयमिति उक्तः वा
तत्र सन्धानम् इत्युक्ते
बाणसन्धानम् इत्युक्ते धनुषि बाण योग योगः
योगः हा समीचीनं नाम तत्र विभक्तः सन्ति तत्र धनुः एकस्मिन् स्थले अस्ति बाणः अन्यस्मिन् स्थले अस्ति अतः तत्र बाणं तत्र धनुषि आरोपणीयम् इति तत्र आरोपणीयम् इति कार्यं खलु
कार्यं कर्तुं प्रेरितवान्
तत् कार्यं कर्तुं
प्रेरितवान् विश्वामित्रः रामं प्रेरितवान्
रामं प्रेरितवान्
कीदृश रामः सोत्साहः विद्यमानः रामं सोत्साहं विद्यमानं रामं प्रेरितवान्
प्रेरितवान् समीचीनं भगिनि अस्तु अग्रे
रामः विश्वामित्रस्य आज्ञां मन्यमानः मोदमानेन मनसा मुनिवरं
तत्र प्रायश तत्र आज्ञां मन्यमानः मोदमानेन मनसा इति तत्र
तृतीयाविभक्ति मोदमानेन मनसा तृतीयाविभक्ति
तत्र नाम तत्र विशेषणविशेषभावः अस्ति खलु पृथक् मा वदतु
रामः विश्वामित्रस्य आज्ञां मन्यमानः विश्वामित्रस्य आज्ञां मन्यमानः रामः मोदमानेन मनसा मुनिवरं विश्वामित्रं जनकं च प्रणति धनुषः समीप
धनुषः प्रणम्य इति तत्र क्रियापदं किं
नम दातु नमति
प्रणमति
अपि च धनुषं समीपं गच्छति
धनु कस्य तत्र समीपं गच्छति तत्र धनुः इति पदस्य कीदृशरूपम् उक्तवती
धनुः धनुषः समीपम् इत्युक्ते धनुषः प्रथमविभक्ति एवं भवति धनुः समीपं गतवान्
न किन्तु धनुषः इति उक्तं खलु तत्र
इत्युक्ते धनुः धनुषि धनुषः इत्युक्ते तृतीयविभक्ति वा तत्र
अस्तु तत्र तत्र शिष्यः अस्ति गुरुः अस्ति तत्र शिशुः गुरुं किमपि प्रष्टुम् इच्छति तदा सः किं करोति सः समीपं गच्छति तत्र वाक्यं वदतु कीदृशं वाक्यं भवति
शिष्यः गुरोः समीपम्
उत्तमं हा किन्तु गुरोः इति विभक्ति का तर्हि
गुरोः समीपं गतवान् तत्र गुरोः गुरोः इत्युक्ते च गुरोः समीप पञ्चमी विभक्ति
न
षष्ठीया
षष्टि नाम तस्य समीपम् इति भवति खलु
तस्य समीपं षष्टिविभक्ति
अतः अत्र अपि धनुः इति पदस्य षष्टि
ओ षष्टिविभक्ति धनुषः अस्तु
धनुषः तस्य धनुषः समीपं गच्छति अथवा गतवान् समीचीनं तर्हि रामः कीदृशः आसीत् सः रामस्य मन्यते सः मन्यते नाम विश्वामित्रस्य आज्ञां सः अङ्गीकरोति मन्यते
रामः विश्वामित्रस्य आज्ञाम् अङ्गीकरोति अपि च मोदमानेन मनसा मुनिवरं विश्वामित्रं जनकं च प्रणमति अपि धनुषः समीपं
तदनन्तरं तत्र तत्र नमस्कारं करोति अनन्तरमेव तत्र धनुषः समीपं
गच्छति
नाम तत्र अन्ये तु तादृशं न कृतवन्तः इति खलु नाम तत्र ते तु
रामः एव एतत् कार्यं करोति
अन्ये तु तत्र केवलं तत्र धनुषः समीपं गत्वा तत्र अतः तत्र ये ज्येष्ठाः सन्ति तत्र सभायां तत्र नमस्कारम् इति न तान् नमस्कृत्य अनन्तरं धनुषः समीपं न गतवन्तः
केवलं
रामः तादृशं कृतवान् समीचीनम्
अपि च सः यदा धनुः उन्नीय बाणं संयोजितवान् तदा धनुः खण्डद्वये विभक्तम् अभवत् सः यदा धनुः उन्नीय सः इत्युक्ते रामः यदा धनुः उन्नीय बाणं संयोजितवान् यदा रामः धनुः उन्नयति उन्नयति बाणं बाणं तत्र संयोजितवान्
तत्र तस्मिन् तस्मिन् तत्र तस्मिन् धनुषि संयोजितवान्
संयोजितवान् तदा धनुः खण्ड धनुः द्वे खण्डद्वये विभक्तम् अभवत् इत्युक्ते किं वदामि खण्डद्वये
भागद्वयम् अभवत् खलु
द्वयम् अभवत् या खण्डद्वयम् अभवत्
खण्डद्वयम् अभवत् नाम तत्र हा तत्र सम्पूर्ण एक अखण्डं धनुः पूर्वम् आसीत् इदानीं तत्र खण्डद्वयम् अस्ति
द्वयम् अभवत्
अतः तत्र तस्य तत्र नाम तत्र हा तत्र नाशः जातः खलु तर्हि नाशः नाशं जातं खलु धनुषः नाश इदानीं तत्र धनुः हा अस्तु समीचीनं भगिनि अस्तु अग्रे अन्य कोऽपि तत्र किञ्चित् अग्रे विवृणु तत्र हा निवेदिता भगिनि किञ्चित् वदति वा
प्रयत्नं करोमि
अस्तु भगिनि तद्दृष्ट्वा इति
तद्दृष्ट्वा सभायां विद्यमानाः सर्वे जयतु जयतु इति उक्तवन्तः तद्दृश्यं दृष्ट्वा सभायां ये राजानः
समीचीनं
उपस्थिताः आसन् ते सर्वे जय जयकारं अकुर्वन्
अकुर्वन् समीचीनं समीचीनं
सीता तु रामस्य सौन्दर्यं दृष्ट्वा पूर्वमेव व्यामुग्धा जाता आसीत् रामस्य सौन्दर्यं दृष्ट्वा सीता अपि मोहिता
आसीत् नाम जाता आसीत् इत्युक्ते जाता इति एव तात्पर्यम् अतः समीचीनम् अग्रे
रामस्य जयं दृष्ट्वा मोदमाना सा रामं प्रीत्या दृष्टवती यदा सा रामस्य जयम् अपश्यत् सा अमोदत्वा
सा मोदति अथवा अमोदत सा अमोदत
सा अमोदत अमोदत सा प्रीत्या अपश्यत्
रामम् अपश्यत् समीचीनं
रामम् अपश्यत् प्रसन्नः जनकः
प्रीत्या नाम तत्र भाववाचक नाम सन्तोषेण किमपि
सन्तोषेण आनन्देन आनन्देन
तादृशं तत्र प्रीतिः स्त्रीलिङ्गे अस्ति इति कृत्वा प्रीत्या इति अस्ति समीचीनं भगिनि तथैव अस्ति
प्रसन्नः जनकः सखिभिः सह भाषमाणया सीतया सह रामस्य समीपं गतवान् जनकः अपि प्रसन्नः अभवत् सीता सखिभिः सह भाषणम् अकुर्वत्
हा समीचीनं अभाषत सखिभिः
अभाषत सखिभिः सह सा अभाषत
सह भाषमाणया नाम तत्र सखिभिः सह
सीतया सह
नाम तत्र
षष्ठीविभक्ति अस्ति सीतया सह नै तृतीयविभक्ति तृतीयविभक्ति अस्ति
तत्र भाषमाणया सीतया इति तत्र प्रथमाविभक्तिरूपं किम् अस्ति
भाषमाणा सीता
भाषमाणा सीता सखिभिः सह भाषमाणा सीता या अस्ति तया सह
सः जनकः रामस्य समीपम् अगच्छत्.
समीचीनम्. अग्रे
लक्ष्मणेन सह विश्वामित्रः अपि तत् स्थानं प्राप्तवान्. विश्वामित्रः अपि लक्ष्मणेन सह तत्र
रामस्य समीपम् आगतवान्.
आगतवान्
नाम तत् स्थानं प्राप्तवान् नाम तत्र सः अपि तत्र आगतवान्.
आगतवान् सीतारामस्य वर्णं कृतवती. विवाहः जातः.
वररूपेण स्वीकरोति. समीचीनम्. अग्रे
ततः गुरुजनानाम् आशिषं याचमानौ तौ नवदम्पती सर्वान् नमस्कृतवन्तौ. द्विवचनमस्ति दम्पत्यस्य अथ द्विवचनं
दम्पती सर्वदा द्विवचने नवदम्पती. अतः तत्र याचमानौ
याचमानौ द्विवचने
नाम याचते याचेत् याचन्ते. किं याचन्ते अथवा याचेते दम्पती?
दम्पती आशिषम् आशीर्वादं याचते.
कस्य?
गुरुजनानां.
गुरुजनानाम् आशिषं याचमानौ नवदम्पती. किं कृतवन्तौ?
सर्वान् नमस्कृतवन्तौ.
सर्वान्
नमस्कारं.
समीचीनं. तथैव अस्ति. अस्तु उत्तमम् अस्ति खलु. उत्तमा अस्ति खलु कथा.
आमां धन्यवादः.
भवती एतां कथामेव सूचितवती खलु भगिनी अथवा अन्यां कथां तत्र द्वितीया कथां
द्वितीया कथां सूचितवती महोदय.
अस्तु अस्तु अस्तु.
किन्तु एषा कथा अपि बहु उत्तमा अस्ति.
अस्तु भगिनि. अस्तु इदानीं तर्हि तत्र
महोदय एतत् पुस्तकं दीक्षा कृते अस्ति वा?
आं भगिनि तत्र संस्कृतस्वाध्यायः इति द्वितीया
दीक्षायाः कृते उत्तमानि पुस्तकानि सन्ति इति मन्ये.
महाराष्ट्रमध्ये तत्र अन्यदपि तत्र किमपि तत्र उत्तमपुस्तकम् अस्ति भगिनि. तत्र अहं दृष्टवान् तत्र तदपि 8th, 9th, 10th स्टाण्डर्ड् तेषां कृते अस्ति.
तानि पुस्तकानि तु मम समीपे सन्ति महोदय. यदा अहं पठनं प्रारम्भं कृतवती तदा प्रथमं तु तदेव क्रीतवती महोदय.
न किन्तु तद् स्कूल् टेक्स्ट् बुक् नास्ति भगिनि. तत्र स्कूल् टेक्स्ट् बुक् एव किन्तु तत्र किमस्ति तत्र अहं न स्मरामि. तत्र किमपि अस्ति एकनिमिषः. तत्र तस्य नाम अस्ति तत्र आमोदः.
आमोदः परन्तु तत्तु महोदय एस् एस् सि बोर्ड् अस्ति न महाराष्ट्रे. अस्माकं महाराष्ट्रबोर्ड् अस्ति तस्य नाम एस् एस् सि बोर्ड् अस्ति. आमोदः इति संस्कृतकृते महाराष्ट्र बोर्ड् प्रिस्क्रैब् पुस्तकानि सन्ति. मम समीपे सन्ति ते. तानि पुस्तकानि मम समीपे सन्ति.
उत्तमं भगिनि. तत्रापि बहु उत्तमरूपेण सर्वं उक्तमस्ति तत्र.
परन्तु महोदय एस् एस् सि बोर्ड् कृते संस्कृत सिलेबस् सुलभमस्ति. ऐ सि एस् सि सि बि एस् सि अस्ति खलु. सि बि एस् सि सिलेबस् किञ्चित् है लेवल् अस्ति. उच्चस्तरीय अस्ति.
तदपि द्रष्टव्यं तर्हि. अस्तु.
मम समीपे तु ऐ सि एस् सि बोर्ड् कृते व्याकरणस्य यत् पुस्तकमस्ति न तदपि अस्ति. व्याकरणवीथिः.
अस्तु. तस्य कवर् एकवारं प्रेषयतु भगिनि.
आमां प्रेषयामि महोदय. पुस्तकस्य कृते तु अहं म्याड् अस्मि. बहु पुस्तकानि सन्ति मम समीपे.
अस्तु भगिनि. अहमपि पुस्तकप्रियः अस्मि. अस्तु अग्रेसरामः तर्हि. तत्र अग्रिमे पुटे तत्र केवलम् एकः विषयः तत्र नाम तत्र शोभगिनी प्रेषितवती तत्र आस्तीनः इति विषये अतः तत्र द्वितीयपुटे तत्र करपत्रे केवलं तत्र नूतनविषयः अस्ति, नाम तत्र वयं पूर्वं यदा पठितवन्तः करपत्रे तत्र किम् आसीत्, तत्र शानदन्तरूपस्य समये प्रथमपुरुषस्य एकवचनं दृष्ट्वा तत्र मुघागमः भवति न वा इति निर्णयं कर्तुं शक्नुमः खलु, इति आसीत् खलु प्रथमतया तत्र अन्यस्मिन् करपत्रे.
आम् महोदय, अनेमुक्
अपि मुघागमः प्रथमपुरुषे एकवचनरूपं दृष्ट्वा मुघागमः नाम तत्र ते पूर्वं ह्रस्वाकारः अस्ति न वा इति. तत्र तदनन्तरं तत्र साक्षात् रूपं कथमस्ति इति ज्ञातुं प्रथमपुरुष बहुवचनरूपं दृष्टवन्तः. इदानीम् अस्मिन् पुटे किम् उक्तमस्ति इत्युक्ते तत्र यदि द्विवचनरूपे अन्ते आते इति स्वरूपं भवति, अतः तत्र केवलं तत्र एकवारं पठामः, शीघ्रतया पठित्वा अग्रे गन्तुं शक्नुमः. तर्हि तत्र तत्र कः पठितुम् इच्छति, तत्र नरेश महोदय पठति वा तत्र द्वितीयपुटे?
तत् कुत्र अस्ति महोदय, अहं न दृष्टवान् कुत्र अस्ति.
तत्र नास्ति वा महोदय, तत्र
करपत्रे
करपत्रे एव अस्ति.
अग्रिमपृष्ठे महोदय,
अग्रिमपृष्ठे
अस्ति.
द्वितीया दीक्षा व्यवहारदीपः
यत्र लट्लकारे.
अस्तु अस्तु पठामि. यत्र लट्लकारे प्रथमपुरुषस्य द्विवचनस्य अन्ते आते इति स्वरूपं भवति, तत्र तस्य स्थाने शानच् आन इति संयोजनं भवति. त्रिषु लिङ्गेषु त्रिषु वचनेषु त्रिषु विभक्तिषु च सदृशं रूपं पूर्वत् जानीत. अत्र विवरणम् अस्ति, आत्मनेपदी धातुः शी शय लटि प्रथमपुरुषस्य द्विवचने शय योग आते शयाते,
नाम तत्र शेत् शयाते इति अस्ति द्विवचने शयाते इति अस्ति. अतः तत्र यत्र आते इति भवति तत्र किं वदन्ति, किं करणीयम् इति वदन्ति.
तत्र शानचरूपं आन् भवति,
आन आन इति
आन भवति. अग्रे शययोग आन शयानः भवति
इति भवति. तत्र नाम तत्र द्विवचने यत् रूपम् अस्ति तद् दृष्ट्वा तत्र आन इति आते इति अस्ति चेत् तत्र वयं तत्र यतो तत्र कुरुते कुर्वाते इति अस्ति खलु, कुर्वाते तत्रापि आते इति अस्ति, तर्हि तत्र कुर्वाणः इति भवति इति. अस्तु भगे,
द्विवचने अस्ति आते अस्ति चेत् तत् भवति
इति अस्ति. अपि तत्र यथा तत्र आस् धातोः अपि तत्र आस्ते आसाते इति अस्ति, तत्रापि तत्र आते इति अन्ते अस्ति द्विवचने, किन्तु तत्र इन् इति प्रत्ययः तत्र किमर्थम् इति तत्र शोभभगिन्या प्रेषितं तत्र जनार्दन हेगडे महोदयस्य पुस्तकात् स्वीकृतं भागं तद् दृष्ट्वा तत्र आसीनः आसीना आसीनम् इति रूपम्. अतः तत्र केवलं तत्र सम्पूर्णं भवेत् इति नाम तत्र प्रथमपुरुषस्य एकवचने ज्ञानेनापि किञ्चित् शानदरूपस्य ज्ञानं भवति, बहुवचनात् अपि किञ्चित् ज्ञानं भवति, द्विवचनात् अपि किञ्चित् ज्ञानं भवति. अतः तत्र प्रथमपुरुष एकवचन द्विवचन बहुवचनरूपं यदि सम्यक्तया जानीमः शानज् प्रत्ययस्य योजनं तत्र सुलभतया कर्तुं शक्नुमः इति तात्पर्यं तावदेव. अस्तु, धन्यवादः महोदय. इदानीम् अग्रे सरामः, तर्हि तत्र अन्या कथा अपि अस्ति, तामपि पठामः तर्हि. इदानीं तर्हि तत्र हर्षिता भगिनी आरम्भं करोति वा.
आं महोदय,
सत्सङ्गतिः कथय किं न करोति पुसाम् अनादिकालात् पुंसाम् आमाम् अनादिकालात् प्रचलन्त्याम् अस्माकं परम्परायां बहवः वैदिकाः ऋषयः अभवन् न केवलं वैदिककाले किन्तु इदानीम् अपि अनेके ऋषयः कठोरं तपः समाचरन्तः दृश्यन्ते महर्षिः वसिष्ठः महर्षिः विश्वामित्रः च वैदिककालीनौ ऋषी आस्ताम् उचिते वयसि यथोचितं व्रतं पालयन्तौ तौ महन्तौ तपस्विनौ अभवताम् योग्याद् गुरोः स्वाध्यायम् अधियानौ तौ ज्ञानिनौ सञ्जातौ एवं तयोः उभयोः पार्श्वे तु ज्ञानस्य भाण्डार एव आसीत्
अनयोः अस्तु
धन्यवादः धन्यवादः
समीचीनं भगिनि अस्तु अग्रे तत्र शोभभगिनी अग्रे
अनयोः महर्षिः विश्वामित्रः जात्या क्षत्रियः स्वभावेन क्रोधी अपि आसीत् परन्तु उग्राणि तपांसि समाचरता तेन ब्रह्मर्षिषु स्थानं प्राप्तम् ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् इति प्रसिद्धं गायत्रीमन्त्रं समाजाय प्रयच्छता तेन अचिरात् प्रसिद्धिः लब्धा जपतः जनान् अभीष्टफलं प्रददति गायत्री लोके कामधेनुरूपेण प्रसिद्धिं प्राप्तवती मुक्तिं कामयमानैः जनैः गायत्रीमन्त्रस्य शक्त्या क्षमताम् भास्वतः सूर्यदेवात् सद्बुद्धिः प्रार्थ्यते
हा समीचीनं हा अस्तु भगिनि अग्रे तत्र वेदा भगिनी अग्रे
आं महोदय महर्षिः वसिष्ठः च जात्या ब्राह्मणः आसीत् किन्तु सः कश्चन ब्रह्मर्षिः एव आसीत् सततं निर्गुणं ब्रह्म उपासीनः सः महतीं सिद्धिं प्राप्तवान् ज्ञानेन प्रज्वल्यमानस्य तस्य ब्राह्मतेजसः समक्षं विश्वामित्रस्य शरीरे प्रवहमानं क्षात्रबलं निष्प्रभं भवति स्म वसिष्ठेन मृत्युं वशीकुर्वतः महामृत्युञ्जयमन्त्रस्य रचना कृता इमं मन्त्रम् आस्थापूर्वकं जपत्सु उपासकेषु दीर्घायुः स्वतः सिद्ध्यति इत्येवं रूपः विश्वासः जनेषु प्रचलन् अस्ति ऋग्वेदे वर्तमानस्य अस्य मन्त्रस्य स्वरूपम् एवं वर्तते त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् एकदा
तावदेव अस्तु अग्रे तत्र निवेदिता भगिनी अग्रे पठति वा
आम् एकदा सत्सङ्गतपश्चरणयोः मध्ये कतरः श्रेष्ठः इति विषये विवादः अभवत् वसिष्ठः सत्सङ्गस्य पक्षे आसीत् विश्वामित्रस्य तु स्वतपस्यायाम् अभिमानः आसीत् परस्परं विवदमानयोः एतयोः विवादे असमाहिते च तौ क्षीरसागरे वर्तमानस्य भगवतः शेषनागस्य सविधे निर्णयार्थम् अगच्छताम् शेषनागः तु मातरं पृथ्वीं स्वशिरसा धारयन् अस्ति अतः एताभ्यां प्रस्तुतं पक्षं शृण्वता तेन कश्चन प्रस्तावः समुपस्थापिता स्थापितः
समुपस्थापितः
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 समुपस्थापितः भवतोः कश्चन मुहूर्तं मम शिरसि विद्यमानां पृथिवीं श्वशिरसि स्थापयतु यावत् अहं किञ्चित् लघुभूय भव समस्यायाः समाधानं कर्तुं प्रभवेयम् इति
भवतोः समस्यायाः समाधानं कर्तुं प्रभवेयम् इति समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
महोदय एवं प्रतिपादयतः शेषस्य वचनं शृण्वन् एव विश्वामित्रः अग्रे आगतवान् सः वर्षाणां दशभिः सहस्रैः सञ्चितानां स्वतपसां बलेन पृथिवीं धारयितुं प्रयत्तवान् परन्तु वारं वारं प्रयत्नं कुर्वन् अपि सः तथा कर्तुं कथमपि समर्थः अभवत् ततः वसिष्ठः अपि सत्सङ्गबलेन तथा कर्तुम् आत्मानं नियोजितवान् सः किन्तु एतस्मिन् कर्मणि अनायासेन सफलः अभवत्
इति अस्ति अस्तु अग्रे तत्र सर्वे पठितवन्तः खलु तत्र अस्तु तर्हि तत्र पुनः तत्र हर्षदा भगिनी अग्रे
आं महोदय ततः कियत् कालं यावत् विचारयन् शेषनागः मौनम् आकलय्य अतिष्ठत् मौनम् अवलम्बमानस्य भगवतः शेषस्य व्यवहारेण विस्मितौ तौ आग्रहं कृतवन्तौ भगवन् आवयोः मध्ये प्रवर्तमानायाः समस्यायाः निर्णयं कुर्वाणेन भवता न किमपि समाधानं विहितम् शेषनागः सस्मितम् अवदत् वत्सौ निर्णयः अभवत् मया पुनः कि करणीयम् इति शेषस्य एतद् रहस्यमयम् उत्तरं शृण्वद्भ्यां ताभ्यां प्रकटीकृतं तद् दृष्ट्वा हसता शेषेण स्पष्टं प्रतिपादितं तर्हि शृणुतम् अनयोः मध्ये सत्सङ्गः एव श्रेयान् यतोहि सत्सङ्गबलेनैव वसिष्ठः किञ्चित् कालं यावत् पृथिवीं धारयितुं समर्थः अभवत् वस्तुतः उत्तमैः सज्जनैः सह निवसन् तथा उत्तमोत्तमपुस्तकानाम् अध्ययनेन मानवः जीवनस्य प्रत्येकस्मिन् क्षेत्रे सफलतां प्राप्तुं शक्नुयात् एवं वदता शेषेण वसिष्ठस्य शिरसि वर्तमाना धरित्री पुनः गृहीता चिरात् प्रवर्तमानायाः उपयुक्तायाः समस्याः सहजं समाधानं लब्ध्वा वसिष्ठविश्वामित्रौ स्वं स्वं स्थानं प्रतिनिवृत्तौ
इति अस्तु समीचीनं भगिनि अस्तु समीचीनं तर्हि तत्र अस्मिन् कथायां तत्र मूलविषय नाम किमस्ति तत्र शत्रु अपि शानज् प्रत्ययान्तानां प्रयोगः तत्र वर्तते अतः तत्र कुत्र तत्र शत्रुन्तरपदमस्ति अपि शानजन्तपदमस्ति इति अस्माभिः द्रष्टव्यमस्ति अत्र अस्तु तर्हि तत्र इदानीं किञ्चित् पठामः तत्र पङ्क्तिशः किं किम् अस्ति इति
महोदय सत्सङ्गतिः कथय किं न करोति पुंसाम् इत्युक्ते किम् अर्थं किम् अस्ति तत्र
सत्सङ्गतिः
कथय किं न करोति पुंसां कथय इत्युक्ते
कथय इति लकारः कः
कथय मध्यमपुरुषे वा एकवचनं न
मध्यमपुरुषे एकवचनं समीचीनं
कथय
कथयति इति पद इति क्रियापदस्य लोट्लकारः मध्यमपुरुषे वचनं कथय त्वं कथय किं कथय
किं न करोति पुंसां सत्सङ्गति
किं न करोति पुंसां पुंसाम् इति तत्र विभक्ति का तत्र
पुंसां पुंसां पुंसः पुंस इति वा पुंसां पुंसां
तत्र विशिष्टपदमस्ति तत्र अतः तत्र
पुंसां किमस्ति पुंसः पुंसां पुंसां
पुंसाम्
इत्युक्ते द्विवचने प्रथमपुरुषे
कोऽपि वदतु तत्र पुंसाम् इति विभक्ति का
पुंसः इति वा प्रातिपदिकं किम् अस्ति
षष्ठीविभक्तिः
हा षष्ठीविभक्ति तत् समीचीनं तस्य तस्य किं न करोति किं नाम तस्य तस्य किं न करोति करोति इति अस्ति तत्र करोति इति क्रियापदं कर्तृपदं किम् अस्ति
कर्तृपदं कथय न किं न करोति पुंसां
कथय एकमस्ति त्वं कथय किम् इदानीं त्वं कथय अतः कथय इति त्यजतु त्वं कथय
किं न करोति पुंसां पुंसां
किन्तु सत्सङ्गतिः इति अस्ति खलु
आं सत्सङ्गति कर्ता
सत्सङ्गतिः किं न करोति कस्य किं न करोति पुंसां किं न करोति नाम सत्सङ्गतिः किं किं कर्तुं शक्नोति पुंसां कृते मनुष्याणां कृते बहु किमपि कर्तुं शक्नोति सत्सङ्गतिः नाम तन नाम सत्सङ्गतित्या बहु किमपि लाभः तत्र तस्याः लाभः तत्र सङ्गतिः तत्र तया लाभः अस्ति इति अतः तत्र बहु किमपि तत्र प्राप्तुं शक्नुमः मनुष्यः शक्नोति इति अर्थः अतः कथय त्वं कथय किं 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 न करोति नाम तादृशी शक्तिः अस्ति सत्सङ्गति इति तस्य तस्याः किं न कर्तुं शक्नोति तद् सा इति वदतु इति प्रश्नः अथ नाम तत्र सत्सङ्गतिः सर्वं कर्तुं शक्नोति इति अस्तु तर्हि तत्र कः आरम्भं कर्तुम् इच्छति तत्र
अस्तु
अस्तु भवती एव करोतु भगिनि तर्हि करोतु
अनादिकालात् प्रचलत्यम् अस्माकं परम्परायां बहवः वैदिकाः ऋषयः अभवन् अनादिकालात् प्रचलन्त्याम् इति तत्र
न न भगिनि तत्र एतत् करोतु तत्र अनादिकालात् नाम अनादिकालात् इत्युक्ते
पूर्वमेव
पूर्वं किन्तु अनादि इत्युक्ते
अनादि इत्युक्ते आदि नास्ति अनादि
तस्य आरम्भः कदा इति
न जानामि
अतः तत्र अस्मिन् तत्र एतस्मिन् समये एतस्य आरम्भः अभवत् इति न वक्तुं शक्नुमः खलु नाम सहस्रवर्षेभ्यः परम्परा इति न वक्तुं शक्नुमः तत्र कदा तस्य आरम्भः अभवत् इति न वक्तुं
कोऽपि वक्तुं न शक्नुमः
अतः अनादिकालात् इति
अनादिकालात् प्रचलन्त्याम् अस्माकं परम्परायां
अभवन् अभवन् इति स्वीकरोतु अनादिकालात् इति इदानीम् अभवन्
अनादिकालात् अभवन् किम्
अनादिकालात् इति उक्तम् इदानीम् अभवन् इति आरभ्य किञ्चित् विवृणोतु अभवन्
कः अभवन् बहवः वैदिकाः ऋषयः अभवन्
नाम
इत्युक्ते अनेकाः ऋषयः सन्ति
न न न बहवः वैदिकाः ऋषयः अभवन् इत्युक्ते सन्ति इति अत्र नास्ति अत्र सर्वदा वयं वदामः सन्ति भवन्ति इति समानार्थकम् इति चिन्तयामः किन्तु सन्ति अपि भवन्ति, तयोः मध्ये भेदः अस्ति, सूक्ष्मभेदः अस्ति. किम् अस्ति? सः अस्ति, सः भवति. तयोः मध्ये कः भेदः?
सः भवति, सः अस्ति. भवति इत्युक्ते भूधातुतः आयाति भवति.
इदानीं तत्र राजा, सः राजा अस्ति, राजा भवति.
भवति इत्युक्ते एक्सिस्ट् एस् इस् इट् लैक् एक्सिस्ट् एक्सिस्ट् अस्ति.
किञ्चित् अधिकेन वक्तव्यमस्ति भगिनि. हा,
भवति.
हा, अन्य कोऽपि वदति वा?
भवन्तः.
भवति अस्ति चेत् परिवर्तनं भवति. राजा भवति, प्रथमा तु सः राजा नासीत्. भवति भवति प्रथमा नास्ति.
हा, भवति इति यदा वदामः, यदा तत्र सः तत्र परिवर्तनं नाम, तत्र पूर्वं सः राजा नासीत्, इदानीं सः राजा अस्ति चेत् अस्तु, सः राजा भवति.
ओ,
युवराजा आसीत्, इदानीं सः राजा भवति, खलु?
अस्तु अस्तु अस्तु.
किन्तु अस्ति इति वदामः चेत् सः अस्ति तावदेव, तत्र परिवर्तनं न सूचयति. तत्र एतस्य तत्र बहुपूर्वम् एकवारं तत्र रघुवीरन्द्रस्वामी मां पृष्टवान् तत्र अस्ति अपि भवति, तस्य उत्तम उदाहरणं किम् इति. अहं बहु समयं तस्मिन् विषये चिन्तितवान्, किमपि न प्राप्तवान्, किन्तु अन्ते एकम् उत्तमम् उदाहरणम् अस्ति वदामि. तत्र तत्र महावाक्यम् अस्ति खलु, महावाक्यम् इति जानन्ति खलु?
न
महोदय,
किमस्ति
महावाक्यं? महावाक्यं
चत्वारि खलु?
सत्यं.
हा, प्रज्ञानं ब्रह्म, अयमात्मा ब्रह्म, तत्त्वम् असि, अहं ब्रह्मास्मि.
हा, तत्र तत्त्वम् असि इति स्थाने तत् त्वं भवसि इति यदि स्थापयामः तत्र अर्थः भिन्नः भवति खलु?
भिन्नः भवति, अपि च प्रमादः भवति.
अतः एव तत्र तस्मिन् वाक्ये असि एव भवेत्, न तु भवसि. अतः तत्र असि इति भवसि, तयोः अस्ति भवति तयोः मध्ये भेदः तेन वाक्येन अवगच्छामः, सम्यक् रीत्या अवगच्छामः.
एकं साधारणवाक्यं वदामि वा महोदय?
वदतु भगिनि, वदतु.
अहं सिद्धा अस्मि, कुत्रापि गमनं गन्तव्यम् अस्ति, अहं सिद्धा अस्मि, अथवा अहं सिद्धा भवामि.
हा, तदपि समीचीनं भगिनि. हा, नाम एतावत् अहं सिद्धा नास्मि,
नास्मि, भवामि.
भवामि, उत्तमं भगिनि, तदपि समीचीनं. हा, उत्तमं. तर्हि वेद भगिनि
इत्युक्ते अस्ति वा?
फ्यूचर् इति नास्ति, इदानीं तत्र अहं सिद्धा नास्मि. यदि अहं सिद्धा भवामि इत्युक्ते तत्र अर्थः अस्ति तत्र एतावत् नास्मि, सिद्धा नास्मि. ऐ विल् गेट् रेडि, ऐ आम् रेडि, खलु?
किन्तु भवतः उदाहरणं बहु सम्यक् अस्ति महोदय, तत्र किमपि क्लेशः एव नास्ति. किमर्थं तस्य किं तत्र डिफ्रेन्स् इति स्पष्टतया अवगन्तुं शक्नुमः.
शक्नुमः, अतः एव तत्र इदानीं मम मनसि तत्र अवस्तु महावाक्यम् इत्युक्ते तत्र असि इति एव, तत्र केवलं तत्र पदत्रयं यदि वयं तस्य ज्ञानं प्राप्नुमः भगिनि, बहु किमपि अस्ति. तत् इत्युक्ते किं, त्वम् इत्युक्ते किम्, असि इत्युक्ते किम्, अहं न जानामि किमर्थम् एतत् सर्वं संस्कृतस्य अध्ययनं कुर्वन्तः स्मः, खलु?
तस्य कृते एव खलु,
केवलं हास्य हास्यरूपेण वदामि, केवलं पदत्रयस्य ज्ञानमेव अपेक्षितम् इति वदन्ति, किन्तु अतः तत्र, हा, अतः तत्र अत्र अभवन् इति नाम तत्र वेदवर्णे तर्हि तत्र मूलविषयः अत्र ऋषयः अभवन् नाम वैदिकाः बहवः वैदिकाः आसन्
ते ऋषयः
ऋषयः अभवन् नाम तत् नाम
ते
पूर्वं ऋषयः नासन्
नासन्
किन्तु ते ऋषयः अभवन् तत्र ते कुत्र सन्ति वैदिकाः
अनादिकालात् अस्माकं परम्परायां प्रचलन्त्यां बहवः वैदिकाः ऋषयः अभवन्
इदानीं तत्र अस्माकम् अस्माकं किं
परम्परायाम्
अस्माकं परम्परायां परम्परायाम् इति विभक्तिः तत्र
सप्तमी विभक्ति
तस्य विशेषणम् अस्ति वा
तस्य विशेषणम् अस्ति अस्ति प्रचलन्त्यां परम्परायां
समीचीनम् इदानीं प्रथमाविभक्तिरूपं वदतु तत्र
अस्माकं
न अस्माकं त्यजतु विशेषणविशेषभावः अस्ति
प्रचलति इति वा प्रचलति वा न परम्परा प्रचलन्ति
सप्तमी रूपम् अस्ति चेत् किमर्थं
प्रचलन्ति परम्परा इति वक्तुं
शक्नुमः इति एव अस्ति तदेव अस्ति नदी नद्यां प्रचलन्ति प्रचलन्त्यां
प्रचलन्ति परम्परा
हा प्रचलन्ति परम्परा नाम या परम्परा प्रचलन्ति अस्ति प्रचलन्ति अस्ति प्रचलति या परम्परा प्रचलति
तत् परन्तु तत् तत् वाक्यस्य अर्थं न अवगतवती महोदय अनादिकालात्
नाम अस्माकं परम्परा अनादिकालात् अस्ति खलु अस्ति परम्परा अनादिकालात् अस्ति खलु
आम्
तादृश तस्मिन् तत्र अनादिकालात् नाम तत्र सहस्रवर्ष अधिकम् इति चिन्तयतु तस्मिन् समये ये अनेके वैदिकाः बहवः वैदिकाः ये परम्परायां सन्ति ते ऋषयः अभवन् नाम परम्परायामपि सन्ति ते अपि तस्मिन् समये नाम अद्य अस्ति किन्तु सहस्रवर्षं पूर्वमपि तत्र अनेके जनाः सन्ति आसन् ते तेषु केचन ऋषयः अभवन् तस्य तस्मात् प्राक् सहस्रवर्षं स्वीकरोतु तत्रापि केचन जनाः ऋषयः अभवन्
बहवः वैदिकाः ऋषयः तस्य
बहवः वैदिकाः वैदिकाः नाम वेदं ये अनुसरन्ति वेदं ये तत्र प्रमाणम् इति स्वीकुर्वन्ति ते जनाः
ऋषयः अभवन् वा
ऋषयः अभवन् तत्र वैदिकमार्गे ये गच्छन्तः आसन् जनाः तेषु बहवः ऋषयः अभवन्
ओ अस्तु
नाम वैदिकः इत्युक्ते ऋषिः इति नास्ति खलु
नास्ति नास्ति
नाम वैदिकः इत्युक्ते समाजे यः अस्ति तदपि सः अपि वैदिकः भवति खलु
परन्तु अनादिकालात् प्रचलन्त्याम् अस्माकं परम्परायां तस्य सम्बन्धः
अस्माकं तत्र अस्माकं परम्परा इदानीमेव प्रचलति
अनादिकालात् प्रचलन्ति
अतः एव अनादिकालात् अस्माकं परम्परा प्रचलति अतः अथवा अनादिकालात् अस्माकं परम्परा प्रचलन्ती अस्ति अथवा आसीत् इदानीं तस्यां प्रचलन्त्यां परम्परायां बहवः वैदिकाः जनाः सन्ति सर्वे वैदिकाः जनाः सन्ति यतोहि परम्परा इति उक्तवन्तः खलु तर्हि वेदं प्रमाणरूपेण स्वीकुर्वन्ति तेषु बहवः जनाः ऋषयः अभवन्
ओ अस्तु अस्तु
नाम तत् नाम तत्र तेषां ते उत्तीर्णतां तत्र प्राप्तवन्तः खलु नाम केवलं मनुष्यः इति नास्ति खलु, ऋषिः इति किञ्चित् अन्यत् स्थानम् अस्ति खलु भगिनि. अतः तत्र तेषु बहवः वैदिकाः ऋषयः अभवन्, ऋषिस्थानं प्राप्तवन्तः ते.
न केवलं वैदिककाले किन्तु इदानीमपि अनेके ऋषयः, न केवलं वैदिककाले किन्तु इदानीमपि अनेके ऋषयः कठोरं तपः समाचरन्तः दृश्यन्ते. वैदिककाले एव एतत् नास्ति, इदानीमपि अनेकः ऋषयः कठोर तपस् कठोर कठोरः तपस्य कठोर
कठोरम् एव कठोर
कठोरं
तपः इति तत्र रूपं किमस्ति पदं न तपः तपः इति पदं
तपस्
लिङ्गं
तपस्
हा मनः मनसि मनांसि तपः तपसि तपांसि
कठोर
कठोरं तपः
कठोरं तपः समाचरन्तः दृश्यन्ते तत्र समाचरन्तः तत्र आचरन्ते
समाचरन्ते तपः समाचरन्ते
समाचरन्ते
समाचरन्ते इति नास्ति क्षम्यतां समाचरन्ति यतोहि
ओ समाचर
समाचरन्तः इति शत्रुन्तप्रत्ययः शत्रुन्तरूपम् अस्ति खलु अतः तत्र तपः समाचरन्ति इति वयं द्रष्टुं शक्नुमः. अतः तत्र ते दृश्यन्ते
अनेके ऋषयः
कठोरतपं कुर्वन्तः दृश्यन्ते समाचरन्तः दृश्यन्ते.
महर्षिवसिष्ठः महर्षिविश्वामित्रः च वैदिककालीनौ ऋषि आस्थां द्विवचने अस्ति तत्र. महर्षिवसिष्ठः महर्षिविश्वामित्रः च वैदिककालीनौ ऋषि आस्थां.
ऋषि इति वचनं किं ऋषि
द्विवचने
ऋषिः ऋषि ऋषयः
ऋषि 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 ऋषयः ऋषि द्विवचने अस्ति आस्थां.
वैदिककालीनौ इत्युक्ते
अनादि वैदिककालीनौ इत्युक्ते तदपि द्विवचनमेव. वैदिककालीनौ
वैदिककालीनः इत्युक्ते
वैदिककालीनः द्वे अपि विशिष्टः अपि च विश्वामित्रः अपि.
किन्तु तत्र कालीनः इत्युक्ते किं वैदिककालीनः इत्युक्ते
वैदिककालीनः प्रथमपुरुषे एकवचनं वैदिककालीनः, कालीनौ इति द्विवचने अस्ति. वैदिककालीनौ इत्युक्ते वैदिककाले सम्बन्धः एव
नाम सत्यं तत् नाम तस्मिन् काले ये आसन् इति सत्यं सम्बन्धः कालीनः. अस्तु वैदिककालीनौ ऋषि आस्थान्
उचिते वयसि यतोचितं व्रतं पालयन्तौ तौ महान्तौ तपस्विनौ अभवताम्. उचिते वयसि यतोचितं व्रतं पालयन्तौ यत उचितं व्रतं पालयन्तौ तौ महान्तौ तपस्विनौ अभवताम्. इत्युक्ते उचिते वयसि इत्युक्ते योग्यवयसि इति वक्तुं शक्नुमः.
सत्यं सत्यं हा हा सत्यं तथैव अस्ति.
योग्यवयसे यतोचितं यतो उचितं व्रतं पालयन्तौ तौ द्वे महर्षिवसिष्ठः अपि च विश्वामित्रः महान्तौ तपस्विनौ अभवताम्.
न न न तत्र भगिनि तत्र पालयन्तौ तौ
महान्तौ तपस्विनौ
अभवताम्.
आम् आम् आं महोदय महान्तौ तपस्विनौ अभवताम् ते महान्
तत्र एकवचने वदतु
महान् तपस्विनः.
हा महान् तपस्विनः तपस्वी
तपस्वी सोरि
महान् तपस्वी इति तत्र ते तत्र सः अभवत् तत्र महर्षिवसिष्ठः अपि अभवत् महर्षिविश्वामित्रः अपि महान् तपस्वी अभवत् किं कृत्वा तत्र
व्रतं पालय
यतो व्रतं पालय
यतो उचितं व्रतं पालयन्तौ
सर्वं कृत्वा एव तत्र ते
महान्तौ
महान्तौ तपस्विनौ अभवत् अस्तु समयः अपि जातः किन्तु उत्तमं भगिनि हा उत्तममस्ति अतः तत्र अग्रिमे सप्ताहे एतां कथां पठामः तत्र अहं चिन्तयामि तत्र प्रायशः द्वितीयपुटं सम्यक् रीत्या तत्र तस्य न सम्यक् रीत्या न पठितुं शक्नुमः इति अतः पुनः एकवारं तत्र तस्य पी डि एफ् प्रेषयामि केवलम् एताम् एतायाः कथायाः पी डि एफ् पुनः एकवारं प्रेषयामि तर्हि अस्तु भगिनि अस्तु हा उषा भगिनी चिन्तम् अस्तु धन्यवादः अस्तु तर्हि तत्र प्रार्थनां तत्र उक्त्वा तत्र विरमामः तर्हि तत्र हर्षदा भगिनी वदति वा
आं महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः गुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः।